ॐ अन्नपूर्णे सदापूर्णे शङ्करप्राणवल्लभे ज्ञानवैराग्य सिद्ध्यर्थं भिक्षां देहि च पार्वती माता च पार्वती देवी पिता देवो महेश्वरः बान्धवा शिवभक्ताः स्वदेशो भुवनत्रयम् हरि ओम् तत्सत् ब्रह्मार्पणमस्तु लोकाः समस्ता सुखिनो भवन्तु।